अथाग्रहस्ते मुकुलीकृतांगुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् कथञ्चिदद्रे स्तनया मिताक्षरम् चिरव्यवस्थापितवाक् अभाषत।
अथेति अथ अनन्तरम् अद्रे स्तनया पार्वती मुकुलीकृताङ्गुलौ सम्पुटीकृताङ्गुलौ अग्रश्चासौ हस्तश्चेति समानाधिकरणसमासः हस्ताग्र अग्रहस्तयोः गुणगुणिनोः भेदाभेदादिति वामनः। तस्मिन् अग्रहस्ते स्फटिकानाम् अक्षमालिकाम् जपमालिकाम् समर्पयन्ती आमुञ्चति कथञ्चित् महता कष्टेन चिरव्यवस्थापितवाक् चिरेण स्वीकृतवाक् एतेन लज्जोपरोधः व्यज्यते। मिताक्षरम् परिमितवर्णम् यथा तथा अभाषत बभाषे।
यथा श्रुतम् वेदविदाम् वरत्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः तपः किलेदम् तदवाप्तिसाधनम् मनोरथानामगतिर्न विद्यते।
यथेति हे वेदविदाम्बर वैदिकश्रेष्ठ त्वया यथा श्रुतम् सम्यक् श्रुतम् श्रुतार्थमेवाह अयम् जनः स्वयमित्यर्थः उच्चैः पदस्य शिवलाभरूपोन्नतस्थानस्य लङ्घने आक्रमणे उत्सुकः किमत्र अयुक्तमित्यत्र आह इदम् तपः तदवाप्तेः तस्य उच्चैः पदस्य आप्तेः प्राप्तेः साधनम् किल किलेति अलीके अतितुच्छत्वात् असाधकमेवेत्यर्थः। तर्हि त्यज्यतामित्याशङ्क्य दुराशा माम् न मुञ्चतीति आशयेन आह मनोरथानाम् कामानाम् अगतिः अविषयः न विद्यते न हि स्वशक्तिपर्यालोचनया कामाः प्रवर्तन्ते इति भावः।
अथाह वर्णी विदितो महेश्वरः तदर्थिनी त्वम् पुनरेव वर्तसे अमङ्गलाभ्यासरतिम् विचिन्त्य तम् तवानुवृत्तिम् न च कर्तुमुत्सहे।
अथेति अथ वर्णी ब्रह्मचारी वर्णिनो ब्रह्मचारिणः इत्यमरः आह उवाचेत्यर्थः। आहेति भूतार्थे लट्प्रयोगो भ्रान्तिमूलः इत्याह वामनः। किमित्याह महेश्वरः महादेवः विदितः मया ज्ञायते इत्यर्थः। बुद्ध्यर्थत्वात् वर्तमाने तप्रत्ययः तद्योगात् षष्ठी च येन त्वम् प्राक् भग्नमनोरथा कृता इति भावः। पुनः एव त्वम् तम् ईश्वरम् अर्थयसे तत् अर्थिन्येव तत्कामैव प्रवर्तसे तत्प्रभावम् अनुभूयापीति भावः। अनुसरणे को दोषः तत्र आह अमङ्गलाभ्यासे अमङ्गलाचारे रतिः यस्य तम् यथोक्तम् ईश्वरम् विचिन्त्य विचार्य तव अनुवृत्तिम् अनुसरणम् कर्तुम् न उत्सहे च नानुमन्तुम् शक्नोमीत्यर्थः।
अवस्तु निर्बन्धपरे कथम् नु ते करोयमामुक्तविवाहकौतुकः करेण शम्भोर्वलयीकृताहिना सहिष्यते तत् ప్రథమావలంబనం.
అవస్త్వితి అవస్తుని తుచ్ఛవస్తుని నిర్బంధః అభినివేశః పరం ప్రధానం యస్యాః తస్యాః సంబుద్ధిః అవస్తునిర్బంధపరే పార్వతి. ఆముక్తం ఆసంజితం వివాహే యత్ కౌతుకం హస్తసూత్రం తద్యస్య సః తే అయం కరః. కౌతుకం మంగళే హర్షే హస్తసూత్రే కుతూహలే ఇతి శాశ్వతః. వలయీకృతాహినా భూషణీకృతసర్పేణ శంభోః మహాదేవస్య కరేణ కరణభూతేన తదేవ ప్రథమం తత్ప్రథమం అపరిచితత్వాత్ అతిభయంకరమితి భావః. తచ్చ తదవలంబనం గ్రహణం చేతి కథన్ను సహిష్యతే న కథంచిదపి సహిష్యతే ఇత్యర్థః. అగ్రతః యద్భావి తద్దూరే అవతిష్ఠతాం ప్రథమం కరగ్రహః ఏవ దుస్సహ ఇతి భావః.
త్వమేవ తావత్ పరిచింతయ స్వయం కదాచిదేతే యది యోగమర్హతః. వధూదుకూలం కలహం సలక్షణం గజాజినం శోణిత బిందువర్షి చ.
త్వమేవేతి హే గౌరీ త్వమేవ స్వయమాత్మనా తావదితి మాత్రార్థే. యావన్మాత్రం విచారణీయం తావన్మాత్రమిత్యర్థః. ఇదమేవ ఉదాహృతం చ గణవ్యాఖ్యానే. పరిచింతయ పర్యాలోచయ కిమితి. కలహంసలక్షణం కలహం చ చిహ్నం చిహ్నం లక్ష్మ చ లక్షణం ఇత్యమరః. వధ్వాః నవోఢాయాః దుకూలం వధూదుకూలం. వధూస్నుషా నవోఢా స్త్రీ ఇతి విశ్వః. తథా శోణితబిందూన్ వర్షతీతి యథోక్తం. ఆర్ద్రమిత్యర్థః. గజాజినం చ కృత్తివాసశ్చ తత్పినాకినః ఇత్యాశయః. ఏతే కదాచిత్ జాత్వపి యోగం సంగతిం అర్హతః యది అర్హతః కిం. ఏతత్ త్వమేవ చింతయేతి పూర్వేణ అన్వయః. పాణిగ్రహణకాలే వధూవరయోః వస్త్రాంతగ్రంథిః క్రియతే. కృత్తివాసస పాణిపీడనేతు దుకూలధారిణ్యాస్తవ కథం సంఘటిష్యత ఇతి భావః.
చతుష్క పుష్ప ప్రకరావకీర్ణయోః పరోపికో నామ తవానుమన్యతే. అలక్తకాంకాని పదాని పాదయోః వికీర్ణకేశాసు పరేత భూమిషు.
చతుష్కేతి చతుష్కే గృహవిశేషే యః పుష్పప్రకరః తత్ర అవకీర్ణయోః న్యస్తయోః. కుసుమాస్తృత దివ్య భవన భూసంచారోచితయోః ఇత్యర్థః. తవ పాదయోః అలక్తకాంకాని లాక్షారంజితాని పదాని పాదాకారాణి పాదన్యాస చిహ్నాని. పదం శబ్దే చ వాక్యే చ వ్యవసాయాపదేశయోః పాదతచ్ఛిహ్నయోః ఇతి విశ్వః. వికీర్ణాః విక్షిప్తాః కేశాః శవశిరోరుహాః యాసు తాసు వికీర్ణకేశాసు. అతస్థం తత్ర దృష్టం చ ఇతి వచనాత్ స్వాంగాచ్చోపసర్జనాదసంయోగోపధాత్ ఇతి వికల్పాత్ న నీష్. పరేతభూమిషు ప్రేతభూమిషు శ్మశానేష్విత్యర్థః. పరోపి శత్రురపి కో నామ అనుమన్యతే నకోపీత్యర్థః. నామేతి కుత్సాయాం పినాకపాణి పాణిగ్రహణే తస్య పరేతభూసంచారిత్వేన సాహచర్యాత్ तवापि तत्र सञ्चारः अवश्यं भावीति भावः
अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षःसुलभं तवापि यत् स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिता भस्मरजः करिष्यति
अयुक्तेति त्रिनेत्रवक्षः त्र्यम्बकालिङ्गनमित्यर्थः तव तत्सम्बन्धितया सुलभमपि सुप्रापञ्च भवतीति शेषः तवेति शेषे षष्ठी न लोकाव्यय इत्यादिना कृद्योगलक्षणषष्ठ्याः निषेधात् अतः परम् अस्मात् त्रिनेत्रवक्षोलाभात् अन्यत् अयुक्तरूपम् अत्यन्तायुक्तम् किम् वद न किञ्चिदित्यर्थः प्रशंसायाम् रूपप् इति रूपप्रत्ययः कुतः यत् यस्मात् कारणात् हरिचन्दनास्पदे हरिचन्दनस्य आस्पदे स्थानभूते अस्मिन् स्तनद्वये चिताभस्म श्मशानभस्म तदेव रजः चूर्णम् कर्तृ पदम् करिष्यति पदम् निधास्यति भर्तुः भवस्य भस्माङ्गरागादिति भावः
इयम् च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया विलोक्य वृद्धोक्षमधिष्ठितम् त्वया महाजनस्मेरमुखो भविष्यति
इयमिति इयम् च ते तव पुरतः आदौ एव अन्या विडम्बना परिहास इत्यर्थः का सा इत्यत्र आह ऊढया परिणीतया वहेः कर्मणि तः वारणराजहार्यया त्वया अधिष्ठितम् आरूढम् वृद्धम् उक्षाणम् वृद्धोक्षम् अचतुर इत्यादिना निपातः विलोक्य महाजनः साधुजनः स्मेरमुखः स्मितमुखः भविष्यति उपहसिष्यति यत् इयमिति पूर्वेण सम्बन्धः स्मेरेति नमिकम्पिस्म्यजस इत्यादिना रप्रत्ययः
द्वयम् गतम् सम्प्रतिशोचनीयताम् समागमप्रार्थनया पिनाकिनः कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी
द्वयमिति पिनाकिनः ईश्वरस्य समागमप्रार्थनया प्राप्तिकामनया क्रियमाणया इति शेषः सम्प्रति द्वयम् शोचनीयताम् शोच्यत्वम् गतम् किं तदाह सा प्रागेव हरशिरोगता अत्र सा इति प्रसिद्धार्थत्वात् न यच्छब्दापेक्षा तदुक्तम् काव्यप्रकाशे प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दः यदुपादानम् नापेक्ष्यते इति कान्तिमती नित्ययोगे मतुप् कलावतः चन्द्रस्य कला षोडशो भागश्च अस्य लोकस्य नेत्रकौमुदी नेत्रानन्दिनी इत्यर्थः त्वञ्च कान्तिमतीत्व नेत्रकौमुदीत्वविशेषणयोः उभयत्रापि अन्वयः प्रागेकैव शोच्या सम्प्रति तु त्वमपि अपरेति द्वयम् शोच्यमिति पिण्डितार्थः शोच्यत्वम् च निकृष्टाश्रयणादिति भावः कन्या वरयते रूपम् माता वित्तम् पिता श्रुतम् बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः इति लोकानाम् आभाषणम् तत्र किञ्चिदपि नास्तीत्याह
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितम् वसु वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किम् व्यस्तमपि त्रिलोचने
वपुरिति वपुः तावत् अस्य विरूपाणि विकृतरूपाणि अक्षीणि नेत्राणि यस्य तत् विरूपाक्षम् बहुव्रीहौ सख्यक्ष्णोः स्वाङ्गात् शच् इति शच् प्रत्ययः वैरूप्यम् च त्रिनेत्रत्वादिति क्षीरस्वामी अतः न सौन्दर्यवार्तापीत्यर्थः अलक्ष्यम् अज्ञातम् जन्म यस्य तस्य भावः तत्ता कुलमपि न ज्ञायते इत्यर्थः अलक्षिता जनिः इति पाठे जनिः उत्पत्तिः अलक्षिता न ज्ञाता जनिरुत्पत्तिरुद्भवः इत्यमरः वसु वित्तम् दिगम्बरत्वेनैव निवेदितम् नास्तीति ज्ञापितमित्यर्थः यदि वित्तम् भवति तदा कथम् दिगम्बरो भवति अतः ज्ञेयम् निर्धनोऽयमिति किम् बहुना हे बालमृगाक्षि पार्वति वरेषु वोढ्रुषु वरौ जामातृवोढारौ इति विश्वः यत् रूपवित्तादिकम् मृग्यते कन्या तद्बन्धुभिः अन्विष्यते तत्त्रिलोचने त्र्यम्बके व्यस्तम् एकमपि समस्तम् मा भूदिति भावः अस्ति किम् नास्त्येवेत्यर्थः
निवर्तयास्मात् असदीप्सितान्मनः क्व तद्विधस्त्वम् क्व च पुण्यलक्षणा अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया
निवर्तयेति अस्मात् असदीप्सितात् अनिष्टमनोरथात् मनः निवर्तय निवारय सा पूर्वोक्ता विधा प्रकारः यस्य तथोक्तः अमङ्गलशीलः इत्यर्थः क्व महदन्तरमित्यर्थः पुण्यलक्षणा प्रशस्तभाग्यचिह्ना त्वम् च क्व अतः न तवायम् अर्हः इत्यर्थः तथा हि साधुजनेन साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत् इति विश्वः श्मशानशूलस्य श्मशानभूमिनिखातस्य वध्यशङ्कोः वैदिकी वेदोक्ता यूपो नाम पशुबन्धनसाधनभूतः संस्कृत दारुविशेषः तस्य सत्क्रिया प्रोक्षणाभ्युक्षणादि संस्कारः यूपसत्क्रिया नापेक्ष्यते नेष्यते यथा श्मशानशूले यूपसत्क्रिया न क्रियते तथा त्वमपि तस्मै न घटसे इति तात्पर्यार्थः
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते
इति एवम् प्रकारेण द्विजातौ द्विजे प्रतिकूलवादिनि सति प्रवेपमानेन चञ्चलेन अधरेण अधरोष्ठेन लक्ष्यः अनुमेयः कोपः क्रोधः यस्याः तथोक्तया तया पार्वत्या उपान्तलोहिते प्रान्तरक्ते विलोचने ವಿಕುಂಚಿತೆ ಕುಟಿಲಿತೆ ಭ್ರೂಲತೆ ಯಸ್ಮಿಂಸ್ತತ್ತಥಾ ಸಭ್ರೂಭಂಗಮಿತ್ಯರ್ಥಃ ತಿರ್ಯಕ್ ಸಾಚಿ ಆಹಿತೆ ನಿಹಿತೇ ಅನಾದರಾತ್ ತಿರ್ಯಕ್ ಐಕ್ಷ್ಯತ ಇತ್ಯರ್ಥಃ.